ಆವರ್ಜಿತ ಜಟಾ ಮೌಲಿ ವಿಲಂಬಿ ಶಶಿಕೋಟಯಃ ರುದ್ರಾಣಾಮಪಿ ಮೂರ್ಧಾನಃ ಕ್ಷತಹುಂಕಾರ ಶಂಸಿನಃ.
ಆವರ್ಜಿತೇತಿ ಆವರ್ಜಿತೇಷು ಪರಿಭವ ದುಃಖಾವನಮ್ರೇಷು ಜಟಾನಾಂ ಮೌಲಿಷು ಜಟಾಜೂಟೇಷು ವಿಲಂಬಿನ್ಯಃ ಶ್ರಂಸಿನ್ಯಃ ಶಶಿಕೋಟಯಃ ಚಂದ್ರರೇಖಾಃ ಏಷಾಂ ತೇ ತಥೋಕ್ತಾಃ. ರುದ್ರಾಣಾಂ ಅಪಿ ಏಕಾದಶಾನಾಮಿತಿ ಶೇಷಃ ಮೂರ್ಧಾನಃ ಕ್ಷತಂ ಹುಂಕಾರಂ ಶಂಸಂತೀತಿ ತಥೋಕ್ತಾಃ. ಹುಂಕಾರಕ್ಷತ್ಯನುಮಾಪಕಾಃ ಇತ್ಯರ್ಥಃ. ಹುಂಕಾರಶಸ್ತ್ರಾ ಹಿ ರುದ್ರಾಃ ಇತಿ ಭಾವಃ.
ಲಬ್ಧ ಪ್ರತಿಷ್ಠಾಃ ಪ್ರಥಮಂ ಯೂಯಂ ಕಿಂ ಬಲವತ್ತರೈಃ ಅಪವಾದೈರಿವೋತ್ಸರ್ಗಾಃ ಕೃತವ್ಯಾವೃತ್ತಯಃ ಪರೈಃ.
ಲಬ್ಧೇತಿ ಪ್ರಥಮಂ ಪೂರ್ವಂ ಲಬ್ಧಪ್ರತಿಷ್ಠಾಃ ಲಬ್ಧಸ್ಥಿತಯಃ ಲಬ್ಧಾವಕಾಶಾಃ ಇತ್ಯನ್ಯತ್ರ. ಯೂಯಂ ಬಲವತ್ತರೈಃ ಪೌರುಷಾತಿರೇಕಾತ್ ಪ್ರಬಲತರೈಃ ನಿರವಕಾಶೈಃ ಇತ್ಯಪರತ್ರ. ಪರೈಃ ಶತ್ರುಭಿಃ ಉತ್ಸರ್ಗಾಃ ಸಾಮಾನ್ಯಶಾಸ್ತ್ರಾಣಿ ಮಾ ಹಿಂಸ್ಯಾತ್ ಇತ್ಯವಮಾದೀನಿ. ಅಪೋದ್ಯಂತೆ ಏಭಿಃ ಇತ್ಯಪವಾದೈಃ ಗಾಮಾಲಭೇತ ಇತ್ಯಾದಿಭಿಃ ವಿಶೇಷಶಾಸ್ತ್ರೈರಿವ ಕಿಂ ಕೃತವ್ಯಾವೃತ್ತಯಃ ಕೃತಪ್ರತಿಷ್ಠಾಭಂಗಾಃ ಕೃತವಿಷಯಸಂಕೋಚರೂಪಬಾಧಾಃ ಇತ್ಯನ್ಯತ್ರ. ವಿಷಯಸಂಕೋಚ ಏವ ಬಾಧಃ ಇತ್ಯಾಚಾರ್ಯಾಃ. ನಿಷೇಧಶಾಸ್ತ್ರಸ್ಯ ವೈದಿಕಹಿಂಸಾಪರಿಹಾರೇಣ ಲೌಕಿಕಮಾತ್ರೇ ವ್ಯವಸ್ಥಾಪನಾತ್ ವಿಷಯಸಂಕೋಚ ಇತ್ಯಲಂ ಅತಿಗಹನಾವಗಾಹನೇನ.
ತದ್ಬ್ರೂತವತ್ಸಾಃ ಕಿಮಿತಃ ಪ್ರಾರ್ಥಯಧ್ವಂ ಸಮಾಗತಾಃ ಮಯಿ ಸೃಷ್ಟಿರ್ಹಿ ಲೋಕಾನಾಂ ರಕ್ಷಾಯುಷ್ಮಾಸ್ವವಸ್ಥಿತಾ.
ತದಿತಿ ತತ್ತಸ್ಮಾತ್ ಕಾರಣಾತ್ ಹೇ ವತ್ಸಾಃ ಪುತ್ರಕಾಃ ವತ್ಸಸ್ತ್ವರ್ಭಕಪುತ್ರಾದ್ಯೋಃ ವರ್ಷೇ ವತ್ಸಂತು ವಕ್ಷಸಿ ಇತಿ ವಿಶ್ವಃ. ಸ್ವಯಂ ಪಿತಾಮಹತ್ವಾತ್ ವತ್ಸಾಃ ಇತ್ಯಾಮಂತ್ರಯತೆ ಸಂಭೂಯ ಆಗತಾಃ ಸಮಾಗತಾಃ ಇತೋ ಮತ್ತಃ ಕಿಂ ಪ್ರಾರ್ಥಯಧ್ವಂ ಕಿಮಿಚ್ಛತೇತ್ಯರ್ಥಃ. ಬ್ರೂತ ಲೋಕರಕ್ಷಣೇ ಯೂಯಮೇವ ಕರ್ತಾರ ಇತ್ಯಾಹ ಮಯಿ ಲೋಕಾನಾಂ ಸೃಷ್ಟಿಃ ಹಿ ರಕ್ಷಾ ಯುಷ್ಮಾಸು ಅವಸ್ಥಿತಾ. ಅತಃ ತದರ್ಥಮಪಿ ನಾಸ್ತಿ ಮದಪೇಕ್ಷಾ ಇತ್ಯರ್ಥಃ.
ತತೋ ಮಂದಾನಿಲೋದ್ಧೂತ ಕಮಲಾಕರಶೋಭಿನ ಗುರುಂ ನೇತ್ರಸಹಸ್ರೇಣ ನೋದಯಾಮಾಸ ವಾಸವಃ.
ತತ ಇತಿ ತತಃ ಭಗವತ್ಪ್ರಶ್ನಾನಂತರಂ ವಾಸವಃ ಇಂದ್ರಃ ಗುರುಂ ಬೃಹಸ್ಪತಿಂ ಗುರು ಗೀಷ್ಪತಿಪಿತ್ರಾದ್ಯೌ ಇತ್ಯಮರಃ. ಮಂದಾನಿಲೋದ್ಧೂತಃ ಯಃ ಕಮಲಾಕರಃ ಸ ಇವ ಶೋಭತೆ ಇತಿ ತೇನ ತಥೋಕ್ತೇನ ನೇತ್ರಾಣಾಂ ಸಹಸ್ರೇಣ ನೋದಯಾಮಾಸ ಪ್ರೇರಯಾಮಾಸ. ಸಹಸ್ರಗ್ರಹಣಂ ಆಸ್ಥಾತಿಶಯಾರ್ಥಂ ಅನಿಮೇಷಾಣಾಂ ಅಪಿ ಪ್ರಯತ್ನವಶಾತ್ ಅಕ್ಷಿಸ್ಪಂದಃ ನ ವಿರುಧ್ಯತೆ.
ಸದ್ವಿನೇತ್ರಂ ಹರೇಶ್ಚಕ್ಷುಃ ಸಹಸ್ರನಯನಾಧಿಕಂ ವಾಚಸ್ಪತಿರುವಾಚೇದಂ ಪ್ರಾಂಜಲಿರ್ಜಲಜಾಸನಂ.
ಸ ಇತಿ ಹರೇಃ ಇಂದ್ರಸ್ಯ ಇಂದ್ರೋ ದುಶ್ಯವನೋ ಹರಿಃ ಇತಿ ಹಲಾಯುಧಃ. ಸಹಸ್ರಾತ್ ನಯನೇಭ್ಯಃ ಅಧಿಕಂ ಸಹಸ್ರನಯನಾಧಿಕಂ ತದಗೋಚರದರ್ಶಿತ್ವಾದಿತಿ ಭಾವಃ. ದ್ವೇ ನೇತ್ರೇ ಯಸ್ಯ ತತ್ ದ್ವಿನೇತ್ರಂ प्रसिद्धात् चक्षुषोऽयं विशेष इत्यर्थः चक्षुः चक्षुर्भूतः चक्षुष्ट्वारोपस्य प्रकृतोपयोगात् परिणामालङ्कारः सः वाचस्पतिः कस्कादित्वात् अलुक्सत्वे षष्ठ्याः पतिपुत्र इत्यादिना सत्वमिति स्वामी तन्न छन्दोविषयत्वात् प्राञ्जलिः सन् जलजासनम् ब्रह्माणम् इदम् उवाच
एवम् यदाथ भगवन् आमृष्टम् नः परैः पदम् प्रत्येकम् विनियुक्तात्मा कथम् न ज्ञास्यसि प्रभो
एवमिति हे भगवन् षड्गुणैश्वर्यसम्पन्न यदात्थ कृतव्यावृत्तयः परैः इति यद्ब्रवीषि भ्रुवः पञ्चानाम् इत्यादिना आहादेशः वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमानप्रयोगः वामनस्तु भ्रान्तोऽयम् प्रयोग इत्याह आहेति भूते नलन्तभ्रमवदिति आहेत्युपलक्षणम् तदेवम् सत्यम् नः अस्माकम् पदम् अधिकारः परैः शत्रुभिः आमृष्टम् आक्षिप्तम् हे प्रभो प्रत्येकम् प्रतिपुरुषम् विनियुक्तात्मा प्रवेशितस्वरूपः सर्वान्तर्यामीत्यर्थः कथम् न ज्ञास्यसि न वेत्सि वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः अपह्नवे ज्ञः अकर्मकाच्च इत्यात्मनेपदविकल्पः
भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः उपप्लवाय लोकानाम् धूमकेतुरिवोत्थितः
भवदिति भवतः त्वत्तः लब्धेन वरेण उदीर्णः उद्धतः तारकः इत्याख्या नामधेयम् यस्य सः तारकाख्यः महान् असुरः महासुरः सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः धूमकेतुः उत्पातविशेष इव लोकानाम् उपप्लवाय उपद्रवाय उत्थितः उत्पन्नः
पुरे तावन्तमेवास्य तनोति रविरातपम् दीर्घिका कमलोन्मेषः यावन्मात्रेण साध्यते
पुर इति अस्य तारकस्य पुरे रविः सूर्यः तावन्तम् तावन्मात्रमेव आतपम् तनोति यावन्मात्रेण यावतैव यावती मात्रामितिः यस्य यावन्मात्रम् तेन वा अल्पपरिमाणेनेत्यर्थः मात्रा परिच्छदे अल्पे च परिमाणे सा मात्रम् कार्ष्ण्येव धारणे इत्यमरः दीर्घिकासु क्रीडावापीषु कमलानाम् उन्मेषः विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः
सर्वाभिः सर्वदा चन्द्रः तम् कलाभिर्निषेवते नादत्ते केवलाम् लेखाम् हरचूडामणीकृताम्
सर्वाभिरिति चन्द्रः तम् तारकम् सर्वदा कृष्णपक्षेऽपीत्यर्थः सर्वाभिः कलाभिः निषेवते कला तु षोडशो भागः इत्यमरः केवलाम् हरचूडामणीकृताम् शिवशिरोमणीकृताम् लेखाम् नादत्ते न गृह्णाति
व्यावृत्तगतिरुद्याने कुसुमस्ते यसाध्वसात् नवाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्।
व्यावृत्तेति वायुः स्तेनस्य भावः कर्म वा स्तेयम् चौर्यम्। स्तेनाद्यन्नलोपश्च इति यत्प्रत्ययो नलोपश्च। कुसुमानाम् स्तेयम् तस्मात् स्तेयाभियोगात् दण्डाद्वा साध्वसम् भयम् तस्माद्धेतोः उद्याने व्यावृत्तगतिः निवृत्तोद्यानसञ्चारस्सन्नित्यर्थः। सापेक्षत्वेऽपि गमकत्वात् समासः। तत्पार्श्वे तत्समीपे तालस्य वृन्तैः उद्ग्रथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तम् तस्य अनिलात् व्यजनसञ्चारपवनात् अधिकम् यथा तथा न वाति। व्यजनम् तालवृन्तकम् इत्यमरः।
पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः उद्यानपालसामान्यम् ऋतवस्तमुपासते।
पर्यायेति ऋतवः षड्वसन्तादयः पर्यायसेवाम् क्रमसेवाम् उत्सृज्य पुष्पाणाम् सम्भारे सङ्ग्रहे तत्पराः आसक्तास्सन्तः इत्यर्थः। तत्परे प्रसितासक्तौ इत्यमरः। उद्यानपालैः उद्यानाधिकृतैः सामान्यम् साधारणम् यथा भवति तथा तम् तारकम् उपासते सेवन्ते। शीतोष्णादिदोषप्रकाशनम् तु दूरापास्तमित्यर्थः।
तस्योपायनयोग्यानि रत्नानि सरिताम् पतिः कथमप्यम्भसामन्तः आनिष्पत्तेः प्रतीक्षते।
तस्येति सरिताम् पतिः समुद्रः तस्य तारकस्य उपायनानाम् प्राभृतानाम् योग्यानि। प्राभृतम् तु प्रदेशनम् उपायनम् इत्यमरः। रत्नानि अम्भसाम् अन्तरा निष्पत्तेः परिपाकपर्यन्तम् विकल्पात् असमासः। कथमपि महता यत्नेन प्रतीक्षते। कदा वा परिपच्येरन् इति एकाग्रेण पालयतीत्यर्थः।
ज्वलन्मणिशिखाश्चैनम् वासुकि प्रमुखानिशि स्थिरप्रदीपताम् एत्य भुजङ्गाः पर्युपासते।
ज्वलदिति किञ्चेति चार्थः। ज्वलन्त्यः मणीनाम् शिरोरत्नानाम् शिखाः ज्वालाः येषान्ते वासुकिप्रमुखाः भुजङ्गाः सर्पाः सिद्धाश्च ध्वन्यन्ते। भुजङ्गस्सिद्धसर्पयोः इत्यमरः। निशि स्थिरप्रदीपताम् अनिर्वाणदीपत्वम् एत्य एनम् तारकम् पर्युपासते परिवृत्य सेवन्ते।
तत्कृतानुग्रहापेक्षी तम् मुहुर्दूतहारितैः अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः।
तत्कृतेति इन्द्रोऽपि तेन तारकेण कृतम् तत्कृतम् अनुग्रहम् प्रसादम् अपेक्षते इति तथोक्तस्सन् मुहुः दूतहारितैः दूतप्रापितैः कल्पद्रुमाणाम् विभूषणैः तत्प्रसूनैरित्यर्थः। तम् तारकम् अनुकूलयति अनुकूलम् करोति।
इत्थमाराध्यमानोऽपि क्लिश्नातिभुवनत्रयम् शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः।
इत्थमिति इत्थम् उक्तप्रकारेण రవి శశి పవనోదధి భుజంగ సురేంద్రై ఆరాధ్యమాన అపి భువనత్రయం క్లిష్ణాతి పీడయతి తథాహి దుర్జన ప్రత్యపకారేణ ప్రతీకారేణైవ శామ్యేత్ శాంతో భవేత్ ఉపకారేణ తు న శామ్యేత్ ప్రత్యుత ప్రకుప్యతీతి భావః
తేనామరవధూహస్తైః సదయాలూనపల్లవాః అభిజ్ఞాశ్చేదపాతానాం క్రియంతే నందనద్రుమాః
తేనేతి తేన తారకేణ అమరవధూహస్తైః సుకుమారైరితి భావః తైరపి సదయం ఆలూనాః అవతంసార్థం ఛిన్నాః పల్లవాః ఏషాంతే నందనద్రుమాః ఛేదాశ్చ పాతాశ్చ ఛేదపాతాః తేషాం అభిజానంతీత్యభిజ్ఞాః కృద్యోగాత్ కర్మణి షష్ఠీ క్రియంతే
వీజ్యతే సహి సంసుప్తః శ్వాస సాధారణానిలైః చామరై సురవందీనాం బాష్పసీకరవర్షిభిః
వీజ్యత ఇతి హి యస్మాత్ కారణాత్ స తారకః సంసుప్తస్సన్ శ్వాస సాధారణః నిశ్వాస సమానః అనిలః ఏషాం తైః తతోపి ఆధిక్యే నిద్రాభంగ భయాదితి భావః బాష్పశీకరవర్షిభిః తాసాం స్త్రీణాం రోదనస్య అయం అవసర ఇతి భావః సురబందీనాం సురప్రగ్రహస్త్రీణాం సంబంధిభిః ప్రగ్రహాపగ్రహౌ బంధ్యాం ఇత్యమరః చామరైః వీజ్యతే
ఉత్పాట్య మేరుశృంగాణి క్షుణ్ణాని హరితాంఖురైః ఆక్రీడ పర్వతాస్తేన కల్పితాస్వేషు వేష్మసు
ఉత్పాట్యేతి తేన తారకేణ హరితాం సూర్యాశ్వానాం హరిత్సూర్యే చ సూర్యాశ్వే వర్ణే చ హరితే దిశి ఇతి విశ్వః ఖురైః శఫైః క్షుణ్ణాని చూర్ణితాని ఏతేన తేషాం అత్యౌన్నత్యం సూచితం మేరుశృంగాణి ఉత్పాట్య స్వేషు వేష్మసు వేష్మస్వితి బహువచనేన అస్య భువనత్రయ నివాసః సూచితః ఆక్రీడంతే ఏషు ఆక్రీడాః తే చ తే పర్వతాః కల్పితాః కృతాః
మందాకిన్యాః పయశేషం దిగ్వారణ మదావిలం హేమాంభోరుహ సస్యానాం తద్వాప్యో ధామ సాంప్రతం
మందాకిన్యా ఇతి సాంప్రతం సంప్రతి మందాకిన్యాః భాగీరథ్యాః దిగ్వారణానాం దిగ్గజానాం మదైః ఆవిలం కలుషం పయః జలమేవ శిష్యత ఇతి శేషం శిష్టం కర్మణి అణ్ప్రత్యయః త్రిష్వన్యత్రోపయుజ్యతే ఇతి నపుంసకత్వం తరిహి కనకకమలాని క్వ గతానీత్యాః హేమేతి హేమాంభోరుహాణ్యేవ సస్యాని తేషాం తు తస్య వాప్యః తద్వాప్యః ఏవ ధామ స్థానం సర్వాణ్యపి ఉత్పాట్య స్వదీర్ఘికాస్వేవ ప్రతిరూపితవాన్ ఇత్యర్థః
భువనాలోకన ప్రీతిః స్వర్గిభిర్నానుభూయతే ఖిలీభూతే విమానానాం తదాపాత భయాత్పథి
భువనేతి తస్య తారకస్య ఆపాతాత్ సమాపత్తేః భయాత్ విమానానాం పథి ఖిలీభూతే अप्रहती भूते सति द्वे खिला प्रहते समे इत्यमरः स्वर्गिभिः देवैः भुवनानाम् आलोकने प्रीतिः नानुभूयते।